तस्य विकासकारणं व्यसनिज्ञानि जनावनेषु न वितनोतु विशेषतः शिवं शिवराजीवत्रिशोदरस्मितम् विकले सकले सुरव्रजे व्रजति श्यामलिमानमच्युते जगतः सदयो हलाहलं चुलुकीकृत्य भयं न्यूनोदयः निगमैस्तुरगी भुवारथि विधिना सारथिमान् विभेदयः कनकाद्रिवरेण कार्मुखी कमलाक्षेण शरीपुरत्रयम् अजितस्य च गाढमत्सरैः कमलाकान्तपुरःसरैः सुरैः पदजायधुधारयारयाद्वधमाधत्त जलन्धरस्य यः कमलासनकञ्जलोचनौ चललिङ्गस्य शिरोङ्घ्रिवीक्षितुम् बतहंस वराहभूमिकौ यतमानावपि यस्य न प्रभु नयनं निटलान्तरस्थितं विघटयेष दिवान्वितोरुषा भुवनत्रय निर्जयोन्नतं मदनं गाढमदं ददाहयः सकले धवलः कलेबरे हरिनीलोपलमञ्जुलः क्वचित् अमृतांशुरिवादधाति यः परमामक्षिमुदं प्रपश्यता अवतं स तुषारदीधिति द्युतिभिर्यस्य यशोभरैरपि सममच्छतरीकृतो दिशाम् अवकाशः सुतरां प्रकाशते गगनानलजीवनानिल क्षितिसोमारुणसोमयाजिभिः महतोपदयस्य मूर्तिभिर्भुवनं क्रान्तमिदं समन्ततः सहस्तेन धवेन राजते वसुधाधारिणि कापि राजते वनिता भवतापनाशिनी चरणप्रेष्य निवेदिताशिनी वनिता पुरुषौ पुरातनौ विमले व्योमनि देवदम्पती भुवनत्रितयस्य तौ विभूरजताद्राविह सिद्धदम्पती गजचर्मधरः कपालभृत् गृहनाथो गृहिणी तु कालिका रुधिराविलमुण्डमालिनी कथितौ तौ बत पण्डितै शिवौ सखिमिन्दुकलाशिरोमणिः किमु ताश्लीलकपालभूषणः किमु मे भवती कपालिनी किमु विभ्राचित रत्नमालिनी रमसेम्ब कपालमालिनी क्वचिदीशेन कपालमालिना अतुल प्रभनिष्कमालिना क्वचिदत्युत्तम रत्नमालिनी युवयोर्मरुतस्तनु भुवो बलवन्तो भुवन प्रकम्पनाः शशिदीधिहारि अध्यशो निगमे पावनमम्बगीयते गुरुमुत्तममभ्रचारिणाम् असमब्रह्मनिधाननायकम् तव देवि शिवे तनु भुवाम् मरुताम् अन्यतमं प्रचक्षति विरदं वदने महामदं सिततं दच्छविधौ तदिक्तटम् इतरत्र मुखान्नराकृतिं विदुरस्यैव विवर्दमद्भुतम् अखिलामरनिर्जयोन्नतः प्रथने तारकदानवो बली हृतवीर्यमदो बभूवय घनशक्त्यायुध तेजसाञ्जसा अमले हृदि निर्मलाशना चिथिले क्रन्थिचये नरायया परिपक्वधिये प्रदर्शये तमसः पारम् अपार वैभवः द्रविडेषु शिशुत्वमेत्ययो गिरिशश्लोकविशेषगायिनी अमृतद्रवसारहारिणीम् निगमाभां निबबन्ध संस्तुतिम् भुवि भट्टकुमारि लाख्यया भवमेत्याध्वर रक्षणाय यः परजैमिनि भाषिताशयम् बहुलाभिः खलु युक्तिभिर्दधौ अधुना विधुनोति यस्तमो विबुध प्रेक्षितमार्गरोधकम् रमणाख्यमहर्षिवेषभृत् श्रुतशोणाचलचारुकन्दरः सगुहोति महो महामहा स्त्रिदशानां प्रतितश्च मूपतिः जगतामधिराज्ञि कोऽपि ते सुतरां प्रीतिपदं कुमारकः जयति त्रिपुरारि भामिनी गणपत्यादिमरुत्प्रसूरुमा तमसूतसुरारिधूतये त्रिदशानाम् अपि याचमूपतिम् स्वकुटुम्बकथाभिधायिनीः गणनाथस्य वियोगिनी रिमाः अवधारयतु प्रसन्नया नगनाथप्रियनन्दिनी धिया।